इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिझाः। अथ वार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना भारत मलेशिया देशयोर्मध्ये प्रगाढः जनसम्पर्कः उद्घाटितः। ह्यः क्वालालम्पुर नगरे एकस्मिन् कार्यक्रमे भारतीय प्रवासिनां जनसभां श्रीमोदी सम्बोधितवान्। समृद्धस्य मलेशिया देशस्य विकसितस्य भारतस्य च दृष्ट्या योगदानार्थं सः तेषां जनानां प्रशंसाम् अकरोत्।
मलेशिया हैज सेकंड लार्जेस्ट इंडियन ओरिजिन कम्युनिटी इन द वर्ल्ड। देयर इज सो मच दैट कनेक्ट्स इंडियन and Malaysian hearts. You are living bridge that links us. You have connected roti chennai with the malabar parota, coconut spices, and of course te tarik. The flavor feels so familiar whether it is in Kuala Lumpur or Kochi. We understand each other so well.
श्रीमोदी मलेशिया देशस्य द्विदिवसात्मकाधिकारिक यात्रायां ह्यः क्वालालम्पुर नगरं प्राप्तवान्, यत्र तस्य भव्यं स्वागतम् अभवत्। श्रीमोदी अद्य मलेशिया देशस्य प्रधानमन्त्रिणा सह वार्तालापं करिष्यति। तदनन्तरं अनेकेषु एमओयू इत्येतेषु हस्ताक्षराणि च भवितुम् अर्हन्ति। विदेश मन्त्रालयस्य प्रवक्ता रणधीर जयसवालः अवदत् यत् भारतस्य मलेशिया देशेन सह व्यापकः रणनीतिकः सम्बन्धः वर्तते, यस्य मूलानि ऐतिहासिकैः सांस्कृतिकैश्च सम्बन्धैः सह निहितानि सन्ति। प्रधानमन्त्रिणः नरेन्द्रमोदिनः मलेशिया देशस्य यात्रायाः विषये जयसवालः अवदत् यत् यात्रावधौ विविधाः सुदृढाः कार्यक्रमाः समृद्धाः कार्यक्रमाः च आयोज्यन्ते। सः अवोचत् यत् एषा यात्रा उभयोः देशयोः मध्ये पारस्परिकान् सम्बन्धान् अपि सुदृढीकरिष्यति। वाणिज्योद्योग मन्त्री पीयूष गोयलः अवोचत् यत् भारतीय निर्यातृभ्यः भारत अमेरिका अन्तरीम व्यापार सन्धेः अन्तर्गतं 50% पारस्परिक शुल्कम् अधुना 18% यावत् न्यूनीकृतं वर्तते। नवदिल्ली नगरे भारत अमेरिका संयुक्त वक्तव्यस्य विषये प्रसार माध्यमान् सम्बोधयन् श्रीगोयलः अवदत् यत् चीन, पाकिस्तान, बांग्लादेशः, वियतनाम इत्यादीनां प्रतिवेशिनां देशानाम् अपेक्षया भारतस्य शुल्कं न्यूनं वर्तते। श्रीगोयलः अधोरेखितवान् यत् अयं व्यवहारः देशस्य कृषिक्षेत्रस्य, दुग्धक्षेत्रस्य च रक्षणं करोति। सेशेल्सस्य राष्ट्रपतिः पेट्रिक हर्मनी भारतस्य पञ्चदिवसीयायां यात्रायां ह्यः प्रथम महिला वेरोनिक हर्मनी इत्यनया सह मुम्बई नगरे आगतः। सेशेल्स राष्ट्रपतिः केन्द्रीय नौकाश्रय नौवहन जलमार्ग मन्त्रिणा सर्बानन्दा सोनोवाल इत्यनेन सह मिलितवान्। अनन्तरं भारतीय उद्योग परिसंघेन सीआईआई आयोजिते भारत सेशेल्स वाणिज्य सम्मेलने भागम् अगृह्णात्। सम्मेलनं सम्बोधयन् राष्ट्रपतिः हर्मन्वर्यः अवोचत् यत् विगत 50 वर्षेषु भारत सेशेल्स देशयोर सम्बन्धः सुदृढः अभवत्। पुरुष क्रिकेट क्रीडायां गतरात्रौ मुम्बई नगरस्य वानखेड़े क्रीडांगणे T20 विश्व कप क्रीडायां तृतीयायां स्पर्धायां भारतं अमेरिकां 39 अंकैः पराजयत्। आदौ संयुक्त राज्य अमेरिकीय दलेन पणकं विजित्य प्रथमं कन्दुकक्षेपणं निश्चितम्। सूर्यकुमार यादवः क्रीडायाः नायकत्वेन उद्घोषितः। प्रियाः श्रोतारः, संस्कृत जगता सम्बद्धैः क्रियाकलापैः संवलितस्य संस्कृत साप्ताहिकीति विशिष्ट कार्यक्रमस्य प्रसारणं आकाशवाण्याः FM गोल्ड प्रवाहिकातः अद्य रविवासरे मध्याह्ने 12:30 भविष्यति। भवन्तः सर्वे श्रोतुं प्रभवन्ति। इति वार्ताः।